शतकम्
भक्तावासं स्मरे नित्यम् आयुः कामार्थसिद्धये
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरे नित्यम् आयुः कामार्थसिद्धये
प्रथमं वक्रतुण्डञ्च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्
नवमं बालचन्द्रं च दशमं
गणपति स्तोत्रं षड्भिर्मासैः फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयः अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेशस्तोत्रं सम्पूर्णम्।